नमः सर्वेभ्यः। अद्य चम्पूरामायणस्य बालकाण्डे चतुस्त्रिंशः पाठः, सेप्टेम्बर् मासस्य तृतीयः दिनाङ्कः। मङ्गलेन आरम्भं कुर्मः। कोऽपि मङ्गलं चिकीर्षति?
लक्ष्मीं सनोतु नितरामितरानपेक्षम्, अङ्घ्रिद्वयं निगमशाखिशिखा प्रवालम्, हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम्, विघ्नाद्रिवेदशतधार धुरन्धरं।
धन्यवादाः। गङ्गावतरणस्य कथा विश्वामित्रमुखात् श्रुता। ततश्च गङ्गामतीत्य विश्वामित्रः रामलक्ष्मणाभ्यां सह विशालानगरीं प्राप्नोति। तत्र रामेण पृष्टस्सन् विशालायाः कथां कथयति। समुद्रमथनकाले पुत्राणां, दैत्यानां मारणेन क्रुद्धादिति इन्द्रघातिनं पुत्रं प्राप्तुं तस्मिन् क्षेत्रे कुशप्लवे बहुकालं तपश्चरति। तस्याः इच्छां ज्ञात्वा इन्द्रः कपटेन तां शुश्रूषमाणः। यदा सा कदाचित् अशुचिः आसीत्, शय्यायां पादस्थाने शिरः विन्यस्य सुप्ता, तदा तस्याः गर्भं प्रविश्य सप्तधा निर्भिद्य निर्जगाम। ततश्च रीतिः तानि गर्भशकलानि इन्द्रेणैव सप्तमरुतः कारयति। तस्मिन् स्थले रामस्य पूर्वजः इक्ष्वाकुः, इक्ष्वाकोः अलम्बुसायाश्च सुतः विशालनामकः राजा विशालानाम्नीं विस्तृतां नगरीं निर्माति इत्युक्तं। तत्र सुमतिनामकः राजा तदा प्रशास्ति स्म। तत्र रात्रिं यापयित्वा अग्रे मिथिलां गच्छन्तः विश्वामित्रादयः गौतमस्य आश्रमं प्राप्नुवन्ति। तत्र अहल्यायाः वृत्तान्तः अद्य दृश्यते, पठ्यते अस्माभिः। अनुवक्तुं ये इच्छन्ति। कामाक्षी, यू हैव टू अनम्यूट।
अत्रागमद्गौतमधर्मदारान् अत्रागमद्गौतमधर्मदारान्
अनार्यजुष्टेन पथा महेन्द्रः
अनार्यजुष्टेन पथा महेन्द्रः अनार्यजुष्टेन पथा महेन्द्रः सचक्रुधानिर्वृषणं वृषाणम् भार्यामदृश्याञ्च मुनिश्चकार।
परच्छेदः
अत्र अगमत् गौतमधर्मदारान् अनार्यजुष्टेन पथा महेन्द्रः सह च क्रुधा निर्वृषणं वृषाणं भार्याम् अदृश्यां च मुनिः चकार।
अत्र अगमत् गौतमधर्मदारान् अनार्यजुष्टेन पथा महेन्द्रः सह च क्रुधा निर्वृषणं वृषाणं भार्याम् अदृश्यां च मुनिः चकार। वाक्यद्वयं विद्यते। प्रथमार्धे अगमत् इति क्रियापदम्। अत्र अस्मिन् आश्रमे विश्वामित्रः तस्य आश्रमस्य कथां वर्णयति. सो अत्र अस्मिन् आश्रमे अगमत् इति क्रियापदं, संगतवान् तया सह मिलितवान् इत्यर्थः. कः अगमत्? महेन्द्रः, देवराजः, इन्द्रः. काम् अगमत्? गौतम धर्मदारान्, गौतमस्य धर्मपत्नी अहल्या. ताम्, तया सह संगमाय इन्द्रः तत्र तम् आश्रमं प्राप्तवान् इत्यर्थः. केन अगमत्? पथा, पथा मार्गेण. कीदृशेन पथा? अनार्यजुष्टेन, अनार्यैः जुष्टं सेवितम्, असाधु जनैः आश्रीयते यादृशः मार्गः तादृशेन मार्गेण, वञ्चनया इत्यर्थः. सो अस्मिन् आश्रमे इन्द्रः, इन्द्रः वस्तुतः गौतमस्य वेषं धृत्वा आगच्छति. अहल्यां कामयमानः आश्रमं प्रविशति. अतः अनार्यजुष्टेन पथ, असाधु मार्गेण गौतमस्य धर्मपत्नीं संगतवान् इन्द्रः. चकार इति द्वितीयार्धे क्रियापदं. चकार विहितवान्. कः चकार? सः मुनिः, मुनिः गौतमः. इन्द्रः यदा तत्र अस्ति तदैव गौतमः प्रत्यागच्छति. सः इन्द्रम् अहल्याञ्च दृष्ट्वा अत्यन्तं क्रुद्धः. सः मुनिः किं चकार? सः शप्तवान्. किं? कः शापः? स च निर्वृषणं वृषाणं भार्याम् अदृश्यां च चकार. वृषाणं, वृषा नाम इन्द्रः तं निर्वृषणं, वृषणः अण्डकोशः, पुरुषाणां अङ्गं यद्भवति वृषणम् इत्युच्यते. निर्वृषणं, निर्गतः वृषणः, यस्मात् सः निर्वृषणः. सो कं निर्वृषणं चकार? वृषाणं, वृषा, वृषन् शब्दः, वृषा इत्यस्य इन्द्रः इत्यर्थः. सो इन्द्रं निर्वृषणं चकार. तथैव पुनः किं चकार? अदृश्याम्, अदृश्या द्रष्टुम् अशक्या, अदृश्या इन्विजिबल्. सो पूर्वरूपपरित्यागेन पाषाणरूपां. तत्र भेदः अस्ति वस्तुतः वाल्मीकिरामायणे वा अत्र वा सा पाषाणरूपं प्राप्तवती इति नोच्यते, अदृश्या इत्येव उच्यते. अग्रे पश्यामः रामायणस्यापि प्रसङ्गः, तत्रापि ताम् अदृश्यां चकार इत्येव उच्यते. तथापि रामायणस्य अन्यासु आवृत्तिषु तथा पुराणान्तरेषु तत्र व्याख्यानकर्त्रा प्रदर्श्यते. पद्मपुराणे अहल्या पाषाणरूपं स्वीकृतवती इत्यस्ति, तुलसी रामायणे अस्ति, अन्येषु बहुत्र सा शिलारूपेण आसीत् इत्यस्ति. किन्तु वाल्मीकिरामायणे वा अत्र चम्पूरामायणे वा साक्षात् पाषाणस्य उल्लेखः नास्ति. सो भार्याम् अदृश्यां चकार इत्येव अस्ति. भार्यां, पत्नीम् अदृश्यां चकार. केन कारणेन? क्रुधा, कोपेन. अन्वयः, अत्र महेन्द्रः अनार्यजुष्टेन पथा गौतमधर्मदारान् अगमत्, सः मुनिः च क्रुधा, वृषाणं निर्वृषणं भार्याम् अदृश्यां च चकार. सो अस्मिन् आश्रमे हि देवेन्द्रः असाधुमार्गेण गौतमस्य धर्मपत्नीं, तत्र पदप्रयोगः द्रष्टव्यः. सः तु कामेन आगच्छति, सा तु धर्मपत्नी अस्ति तस्य. सो तत् तयोरन्तरं धर्मदारान् इत्यनेन प्रदर्शयति कविः. सो गौतमस्य धर्मपत्नीम् अहल्याम् अनार्यजुष्टेन पथ सङ्गतवान् असाधुमार्गेण. गौतमः क्रोधेन इन्द्रं विगताण्डकोशं, पत्नीम् अदृश्यांश्च विहितवान् तथा शापं दत्तवान्. रामायणे अयं प्रसङ्गः. तस्यान्तरं विदित्वा तु सहस्राक्षशचीपतिः முனிவேஷதரோ ஹல்யாம் இதம் வசனம் அப்ரவீத். ஸோ முனிவேஷதரஹ கௌதமஸ்ய வேஷமேவ த்ருத்வா ஆகத்ய அஹல்யாம் பிரார்த்தயதே அஹம் த்வாம் இச்சாமி கிருபயா மயா சஹ சங்கமம் குரு இதி. முனிவேஷம் சஹசிராட்சம் விஜ்ஞாய ரகுநந்தன மதிஞ்சகால துர்மேதாக தேவராஜ குதூஹலாத். சா அஹல்யா எத்யபி ஏஷஹ வேஷாந்தரம் த்ருத்வா ஆகதஹ சா து ந வஞ்சிதா, சா ஜானாதி. முனிவேஷம் சஹசிராட்சம் விஜ்ஞாய ஞாத்வா அபி தேவராஜ குதூஹலாத் சாக்ஷாத் தேவானாம் ராஜா மாமிச்சன் ஆகதஹ இதி கௌதூஹலேன சா அங்கீகிருத்தவதி. அதஏவ தஸ்யாஹ அபி அபராத பாக்த்வம் பவதி. அத திருஷ்ட்வா சஹஸ்ராக்ஷம் முனிவேஷதரம் முனிஹி. ஆத்மவேஷே அன்யம் இந்திரம் திருஷ்ட்வா கௌதமஹ துர்வ்ருத்தம் விருத்தசம்பன்னஹ. விருத்தம் நாம ஷீலம், சரிதம், அஸ்மாகம் வ்யவஹாரஹ. ஸோ துர்வ்ருத்தம் விருத்தசம்பன்னஹ சுஷீலஹ தர்மிஷ்டஹ சஹ முனிஹி. துர்வ்ருத்தம் தம் இந்திரம் திருஷ்ட்வா ரோஷாத் வசனம் அப்ரவீத். மம ரூபம் சமாஸ்தாய கிருதவானசி துர்மதே அகர்த்தவ்யமிதம் தஸ்மாத் விபலஸ்த்வம் பவிஷ்யசி. மமைவ ரூபம் த்ருத்வா ஏதாதிருஷம் அகாரியம் கிருதவான். ததா சப்த்வா சவை சக்ரம் அஹல்யாமபி சப்தவான் இஹ வர்ஷசஹஸ்ராணி பஹூனி த்வம் நிவத்ஸ்யசி. பஹூனி வர்ஷசஹஸ்ராணி சுசிரம் யாவத் வாயுபக்ஷா நிராஹாரா தப்யந்தி பஸ்மசாயினி அதிருஷ்யா சர்வபூதானாம் ஆஸ்ரமேஸ்மின் நிவத்ஸ்யசி. ஸோ அஸ்மின்னேவ ஆஸ்ரமே தாவந்தி வர்ஷாணி அதிருஷ்யா சர்வபூதானாம் அதிருஷ்யா. ஸோ கீதிருஷி நிராஹாரா அத்தஹேவ வாயுபக்ஷ கேவலம் வாயு ஏவ அன்யக் கோபி ஆஹாரஹ நாஸ்தி தப்யந்தி பஸ்மசாயினி இதி ராமாயணஸ்ய பிரசங்கஹ. ஸோ அகமத் கமல் கதௌ கம் கச்சதி இத்யஸ்ய லுங்லகாரே பிரதம புருஷே ஏகவசனம் அகமத். கௌதம தர்மதாரான் தர்மார்த்தம் தாராஹ தர்மதாராஹ கௌதமஸ்ய தர்மதாராஹ. ஸோ தார சப்தஸ்ய விசேஷஹ பிராயண ஜ்ஞாதஹ ஸ்யாத். பத்னி இத்யர்த்தஹ கிந்து புல்லிங்கே ஏவ பிரயோகஹ சப்தஹ புல்லிங்க சப்தஹ இதமேவ உதாஹரணம் தீயதே. சம்ஸ்கிருதே சப்தானாம் லிங்கம் சப்தமேவ ஆஶ்ரித்ய பவதி நது அர்த்தம் ஆஶ்ரித்ய. பார்யா அதவா பத்னி இத்யஸ்ய லிங்கத்ரயேபி சப்தாஹ சந்தி. பார்யா பத்னி இத்யாதி ஸ்திரீலிங்க சப்தாஹ. கலத்ரம் இதி நபும்சகலிங்க சப்தஹ. தாராஹ இதி புல்லிங்க சப்தஹ. அதஹ அர்த்தம் ஆஶ்ரித்ய லிங்கம் ந பவதி, சப்தாஶ்ரயம் ஏவ லிங்கம். தத்ராபி தார சப்தஸ்ய அயமபி விசேஷஹ நித்யம் பஹுவசனாந்தஹ. ஸோ தாராஹ இத்யஸ்ய பஹ்வ்யஹ பத்ன்யஹ இத்யர்த்தஹ ந, ஏகா ஏவ பத்னி தாராஹ இத்யுச்யதே. பார்யா ஜாயாத பும் பூம்னி தாராஹ. பும் பூம்னி புல்லிங்கே பூம்னி நாம பஹுவசனே தாராஹ. ஸோ கௌதம தர்மதாரான் அனார்ய ஜுஷ்டேன அனாரியைஹி ஜுஷ்டம் அனார்ய ஜுஷ்டம் ஜுஷ்டம் சேவிதம் இத்யர்த்தஹ. அனார்யாஹ ந ஆர்யாஹ அனார்யாஹ அனார்யைஹி ஜுஷ்டம் அனார்ய ஜுஷ்டம் தேன பதா அதவா அனார்யைஹி ஜுஷ்டஹ தேன. பதின் சப்தஸ்ய விசேஷணம் பதா நகாராந்த புல்லிங்கஹ பதின் சப்தஹ விசேஷ ரூபாணி பவந்தி. பந்தாஹ பந்தானௌ பந்தானஹ பந்தானம் பந்தானௌ பதஹ பதா பதிப்யாம் பதிபிஹி இத்தேவம் ரூபாணி பவந்தி. அயனம் வர்த்ம மார்க அத்வ பந்தானஹ பதவீ ஸ்ருதிஹி இத்யமரகோஷஹ. அயனம் வர்த்ம மார்காத்வ பந்தானஹ பதவீ ஸ்ருதிஹி. ஸோ வர்த்ம மார்கஹ அத்வா இத்யாதீனி பர்யாய பதானி பவந்தி. ஸோ அனாரிய ஜுஷ்டேன பதா மகேந்திரஹ சச க்ருதா. க்ருதா க்ருத் தகாராந்த ஸ்திரீலிங்கஹ तृतीया विभक्तौ एकवचनम्। कोपक्रोध मर्षरोष प्रतिघाः रुट् क्रुधौ स्त्रियौ, रुट् ऋषौ ऋषः, कृत् क्रुधौ क्रुधः इति शब्दद्वयं कोपवाचकं स्त्रीलिङ्गे भवति। क्रुधा निर्वृषणं, निर्गताः वृषणाः इत्यतः। तं निर्वृषणं वृषाणं, सो वृषन् इति नकारान्तः पुल्लिङ्गः, द्वितीया विभक्तौ एकवचनं। वृषावृषाणौ वृषाणः वृषाणं, वासवो वृत्रः वृष इत्यमरकोशे इन्द्रस्य पर्यायः। अदृश्यां, न दृश्य अदृश्य। अत्र उपजातिः वृत्तं, बहोः कालात् अनुष्टुप् छन्दः एव दृष्टः। उपजातिः यत्र द्वयोः वृत्तयोः समावेशः भवति तद्वृत्तम् उपजातिः इति कथ्यते। अत्र प्रथमपादे अत्रागमद्गौतमधर्मधारान् इत्यत्र, अन्तिमपादे च इन्द्रवज्रवृत्तमस्ति, द्वितीयतृतीयपादयोः उपेन्द्रवज्र, अतः उपजातिः वृत्तम्। अत्रागमद्गौतमधर्मधारान् अनाद्यजुष्टेन पथा महेन्द्रः, सचक्रुधा निर्वृषणं वृषाणं, भार्यामदृश्याञ्च मुनिश्चकार। अग्रिमश्लोकः ये अनुवक्तुमिच्छन्ति। जानकी भगिनि, नमस्ते।
वनमेतद्गते रामे
शापान् मुक्ता भविष्यसि।
इत्युक्त्वा गौतमः पत्नीम्
हिमाद्रिं तपसे ययौ।
वनम् एतत् गते रामे, शापात् मुक्ता भविष्यसि इति उक्त्वा गौतमः पत्नीं हिमाद्रिं तपसे ययौ।
धन्यवादः। सो वनम् एतत् गते रामे, शापात् मुक्ता भविष्यसि इति उक्त्वा गौतमः पत्नीं हिमाद्रिं तपसे ययौ। भविष्यसि शप्त्वा भार्यायाः शाप विमोक्षणमार्गमपि वदति गौतमः। भविष्यसि कीदृशी भविष्यसि? मुक्ता। कस्मात्? शापात्। सो अदृश्यत्वरूपात् शापात् मोचनं भविष्यति। कदा मुक्ता भविष्यति? गते प्राप्ते। कस्मिन्? रामे। सो दाशरथौ श्रीरामचन्द्रे। कुत्र गते? एतद्वनम्। सो यदा रामचन्द्रः इदं काननं प्रति आगमिष्यति तदा त्वं शापात् मुक्ता भविष्यति इत्युक्त्वा, एवम् अभिधाय काम् उक्त्वा पत्नीं, भार्याम् उक्त्वा ययौ जगाम। कः ययौ? गौतमः। कुत्र ययौ? हिमाद्रिं। हिमस्य अद्रिः हिमाद्रिः, हिमालयपर्वतं गतवान्। किमर्थं ययौ? तपसे, तपश्चरणार्थं हिमालयपर्वतं जगाम। सो रामे एतद्वनं गते, शापात् मुक्ता भविष्यसि इति पत्नीम् उक्त्वा गौतमः तपसे हिमाद्रिं ययौ इति अन्वयः। सो यदा श्रीरामः इदं काननं प्रति आगमिष्यति तदा त्वं त्वम् अदृश्यत्वरूपात् शापात् मुक्ता स्वरूपं प्राप्स्यसि, तदा अहमपि आवयोः पुनः मेलनं भविष्यति इति पत्नीम् आश्वस्य गौतममहर्षिः तपश्चरितुं हिमालयपर्वतं गतवान्। सो वनमेतद् गते रामे इति सतिसप्तमी प्रयोगः। सो यदा द्वयोः क्रिययोः लक्ष्यलक्षणभावः, सो कदा एका क्रिया इत्युक्ते अपरस्याः क्रियायाः समयम् आश्रित्य अस्याः क्रियायाः कालनिर्णयः। सो शापान् मुक्ता भविष्यसि कदा रामे एतद्वनं गते। सो यदा रामः एतद्वनं प्राप्तः भविष्यति तदा त्वं शापान् मुक्ता भविष्यसि। मुक्ता मुचल मोक्षणे धातोः क्तप्रत्ययान्तः, स्त्रीलिङ्गे टाप् भवति मुक्ता। हिमाद्रिं हिमस्य अद्रिः हिमाद्रिः, तं हिमाद्रिं। तपसे तपस् शब्दः सकारान्तः नपुंसकलिङ्गः, तस्य चतुर्थी विभक्तौ एकवचनं। तपश्चरणार्थं हिमाद्रिं गतवान् इत्यर्थः। ययौ या प्रापणे धातोः लिट् लकारे प्रथमपुरुषे एकवचनम्। सो अनुष्टुप् छन्दः अस्य श्लोकस्य। वनमेतद्गते रामे शापान् मुक्ता भविष्यति इत्युक्त्वा गौतमः पत्नीं हिमाद्रिं तपसे ययौ। अग्रे अग्रिमश्लोकः इत्थं विदितवृत्तान्ते देवतानाङ्गणे तदा पितॄणां प्राभवाल्लेभे मेषस्य वृषणं वृषा
इत्थं विदितवृत्तान्ते देवतानां गणे तदा पितॄणां प्राभवात् लेभे मेषस्य वृषणं वृषा।
धन्यवादः। इत्थं विदितवृत्तान्ते देवतानां गणे तदा पितॄणां प्राभवात् लेभे मेषस्य वृषणं वृषा। इन्द्रस्य का गतिः? अहल्या अदृश्या जाता, लेभे प्राप्तवान्। कः लेभे? वृषा। पूर्वमपि आगतं वृषाणं, वृषन् शब्दः इन्द्रः इत्यर्थः। कं लेभे? मेषस्य वृषणं। सो मेषः एडकः, तस्य वृषणम् अण्डकोशं प्राप्तवान्। एषा कथा वस्तुतः वेदकालादपि प्रसिद्धा। अहल्यायाः इन्द्रः मेषवृषणः इत्येव प्रसिद्धः। कथायाः किं तात्पर्यं तस्य इति न ज्ञायते, इतोपि वस्तुतः द्रष्टव्यं। किन्तु वेदेषु अपि अस्य प्रसङ्गस्य उल्लेखः दृश्यते। सो मेषस्य वृषणं प्राप्तवान् इन्द्रः, कस्मात् कारणात्? प्राभवात्, माहात्म्यात्। सो केषां प्राभवात्? पितॄणां, पितृदेवतानां। सो पितृदेवतानां अनुग्रहेण, तेषां बलेन इन्द्रः निर्वृषणः वृषा मेषस्य वृषणं प्राप्तवान्। कदा लेभे? तदा। कस्मिन् समये? विदितवृत्तान्ते। सो प्रवृत्तं वृत्तान्तं ज्ञातवन्तः के? देवतानां गणे। सो कस्मिन् विदितवृत्तान्ते सति? गणे, गणः समूहः। केषां गणे? देवतानां। सो यदा इन्द्रः लज्जया प्रत्यागतः, तदा देवाः सर्वे विषयं विज्ञाय पितृदेवतानां प्रभावेण इन्द्रस्य मेषवृषण योजनं कारितवन्तः इत्यर्थः. सो तदा देवतानां गणे इत्थं विदितवृत्तान्ते पितॄणां प्राभवात् वृषा मेषस्य वृषणं लेभे. सो लज्जया प्रत्यागते इन्द्रे अमराः प्रवृत्तं वृत्तान्तं ज्ञातवन्तः. ततः पितृदेवतानां माहात्म्येन निर्वृषणः इन्द्रः एडकस्य अण्डकोशं प्राप्तवान्. प्राभवात् प्रभोः भावः प्राभवं, प्रभुशब्दात् अण् प्रत्ययः, प्राभवं तस्मात् सामर्थ्यात् इत्यर्थः. प्राभवात् लेभे, प्राभवाल्लेभे परसवर्णसन्धिः तोर्लि इति सूत्रेण तवर्गस्य लकारे परे परसवर्णः भवति. मेषस्य मेष एडक शीप् इत्यर्थः मेषशब्दस्य. मेढ्र उरभ्र उरण ऊर्णायु मेषवृष्णयः एडके इत्यमरकोशे अस्ति. सो एते सर्वेपि मेषस्य पर्यायपदानि. मेषः शीप्, अजः गोट्, मेषः शीप्, यस्य ऊर्ण, द वन् विच् हेज् उल्, अत एव ऊर्णायुः, ऊरणः इत्यादि शब्दाः सन्ति मेषस्य. वृषा, वृषन् नकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ एकवचनम्. अयमपि श्लोकः अनुष्टुप् वृत्ते निबद्धः. इत्थं विदितवृत्तान्ते देवतानाङ्गणे तदा पितॄणां प्राभवान् लेभे मेषस्य वृषणं वृषा. अग्रिमश्लोकः अनुवक्तुम् इच्छन्ति. वेङ्कटेश्वरं महोदय. तदेनामेन सो मुक्ताम्,
तदेनामेन सो मुक्ताम्, तदेनामेन सो मुक्ताम्
प्रतिगृह्णातु गौतमः,
प्रतिगृह्णातु गौतमः, प्रतिगृह्णातु गौतमः
इति तस्याश्रमं भेजे,
इति तस्याश्रमं भेजे, इति तस्याश्रमं भेजे
साकं रामेण कौशिकः,
साकं रामेण कौशिकः, साकं रामेण कौशिकः. तदे मेनसो तदे तदेनां येनसो येन सह मुक्तां प्रति गृह्णातु गौतमः इति तस्य आश्रमं भेजे साकं रामेण कौशिकः.
धन्यवादः. तत् एनां येन सह मुक्तां प्रतिगृह्णातु गौतमः इति तस्य आश्रमं भेजे साकं रामेण कौशिकः. तत् तस्मात् एतादृशीं कथाम् उक्त्वा एवं प्रतिगृह्णातु स्वीकरोतु कः गौतमः प्रतिगृह्णातु काम प्रतिगृह्णातु एनाम अहल्याम कथं भूताम एनाम मुक्ताम विमोचिताम कस्मात् मुक्ताम एन सह एनः नाम पापम् इत्यर्थः. एनस् शब्दः पापात् मुक्ताम् एतावन्ति कालानि अदृश्या भूत्वा तपश्चरन्ति पापविमोचनं तस्याः पापानि पापफलं भुक्तम् अतः इदानीं शापविमोचनकालः सन्निहितः. एवं येन सह मुक्तां पापात् विमोचिताम् एनाम् अहल्यां गौतमः प्रतिगृह्णातु, गौतममहर्षिः पुनः अङ्गीकरोतु इति एवम् उक्त्वा भेजे प्राविशत् प्रविष्टवान्। कः भेजे? कौशिकः विश्वामित्रः प्रविष्टवान्। कं भेजे? आश्रमं गौतमस्य उतजं। कस्य? गौतमस्य, तस्य गौतमस्य। केन साकं? रामेण साकं, साकं सार्धं समं सह इति सर्वं समानार्थकम्। सो विश्वामित्रः रामेण सह गौतमाश्रमं प्रविष्टवान्। सो तत् येन सह मुक्तां एनां, गौतमः प्रतिगृह्णातु इति कौशिकः रामेण साकं तस्य आश्रमं भेजे। सो तस्मात् भवतः प्रभावेण एषा अहल्या पापाद् विमुक्ता भवतु, गौतममहर्षिः च स्वपत्नीं पुनः स्वीकरोतु। गौतमेनैव उक्तं यदा रामः आगच्छति तदा भवत्याः मुक्तिः भविष्यति। अतः एवम् उक्त्वा विश्वामित्रः रामेण सह गौतमस्य आश्रमं प्रविष्टवान्। येन सह, एनस् सकारान्तः नपुंसकलिङ्गः पञ्चमी विभक्तौ एकवचनम्। कलुषं वृजिनैनोघम् अम्हो दुरितदुष्कृतम् इत्यमरः। कलुष वृजिन एनस् अघ अम्हस् दुरित दुष्कृत एतत् सर्वमपि पापशब्दस्य पर्यायपदानि। अस्त्री पङ्कं पुमान् पाप्मा इत्येवम् आरभ्यते। सो तत्र एतानि सर्वाणि पदानि सन्ति। प्रतिगृह्णातु, प्रति उपसर्गः, ग्रह उपादाने इति धातुः, तस्य लोट्लकारे प्रथमपुरुषे एकवचनं प्रतिगृह्णातु। भेजे भज सेवायां धातोः आत्मनेपदे लट्लकारे प्रथमपुरुषे एकवचनम्। रामेण साकं सहयुक्ते अप्रधाने इति सूत्रमस्ति, यत्र सह शब्दस्य पर्यायपदानि उपयुज्यन्ते। सह, साकं, सार्धं, समम् इत्यादि अव्ययानि, तैः सह तृतीया विभक्तेः प्रयोगः कर्तव्यः इत्यर्थः। अत्रापि अनुष्टुप् वृत्तम्। तदेनामेन सो मुक्तां प्रतिगृह्णातु गौतमः इति तस्याश्रमं भेजे साकं रामेण कौशिकः। अग्रिमश्लोकः शम्पूरामायणस्य बहु प्रसिद्धेषु श्लोकेषु अन्यतमः। सो वेरी पाप्युलर् श्लोक फ्रम् द शम्पूरामायण, वेरि ब्यूटिफुल् श्लोक आल्सो। महादेवन् दुःखे सुखे च,
दुःखे सुखे च, दुःखे सुखे च,
रज एव बभूव हेतुः,
रज एव बभूव हेतुः, रज एव बभूव हेतुः,
तादृग्विधे महति,
तादृग्विधे महति, तादृग्विधे महति,
गौतमधर्मपत्न्याः,
गौतमधर्मपत्न्याः, गौतमधर्मपत्न्याः,
यस्माद्गुणेन रजसा विकृतिं गता सा,
यस्माद्गुणेन रजसा विकृतिं गता सा, यस्माद्गुणेन रजसा विकृतिं गता सा,
रामस्य पादरजसा प्रकृतिं प्रपेदे,
रामस्य पादरजसा प्रकृतिं प्रपेदे, रामस्य पादरजसा प्रकृतिं प्रपेदे,
दुःखे सुखे च रज एव बभूव हेतुः,
दुःखे सुखे च रज एव बभूव हेतुः, दुःखे सुखे च रज एव बभूव हेतुः,
तादृग्विधे महति गौतमधर्मपत्न्याः,
तादृग्विधे महति गौतमधर्मपत्न्याः, तादृग् विधे महति गौतम धर्म पत्न्याः
यस्माद् गुणेन रजसा विकृतिं गता सा
यस्माद् गुणेन रजसा विकृतिं गता सा यस्माद् गुणेन रजसा विकृतिं गता सा
रामस्य पादरजसा प्रकृतिं प्रपेदे
रामस्य पादरजसा प्रकृतिं प्रपेदे रामस्य पादरजसा प्रकृतिं प्रपेदे दुःखे सुखे च रजः एव बभूव केतुः तादृक् विधे महति गौतमधर्मपत्न्याः यस्मात् गुणेन रजसा विकृतिं गता सा रामस्य पाद रजसा प्रकृतिं प्रपेदे
सरलः श्लोकः अपि लघु लघु पदानि एव सन्ति दुःखे सुखे च रजः एव बभूव हेतुः तादृक् विधे तादृग्विधे महति गौतमधर्मपत्न्याः यस्मात् गुणेन रजसा विकृतिं गता रामस्य पादरजसा प्रकृतिं प्रपेदे बभूव अभूत् किं बभूव हेतुः हेतुः कारणं कारणम् आसीत् कुत्र हेतुः दुःखे सुखे च सो पूर्वं तस्याः अदृश्यत्वरूपं शापं प्राप्य यावन्तं क्लेशम् अनुभूतवती तादृशस्य दुःखस्य सुखे च इदानीं पुनः तस्याः निजरूपं प्राप्य यदानन्दम् अनुभवति तस्य च दुःखे सुखे च कारणम् कीदृशे दुःखे सुखे च तादृग्विधे महति सो सामान्यं न बहूनि सहस्राणि वर्षाणि यावत् तया अदृश्यया भवितव्यमासीत् सो तादृशे अनिर्वाच्ये अनल्पे सो तादृशं क्लेशम् अनुभूय पुनः स्वरूपप्राप्तिः इति महत्सुखमपि यथा महद्दुःखं तथा महत्सुखं सो तादृग्विधे अनिर्वाच्ये महति अनल्पे दुःखे सुखे च कारणमासीत् किं कारणमासीत् रजः एव सो कस्याः गौतमधर्मपत्न्याः अहल्यायाः दुःखे सुखे च किं हेतुः बभूव रजः एव सो फार् बोत् दुःख एण्ड् सुख उभयत्रापि रजः एव कारणम् आसीत् इत्यर्थः अत्र श्लेषेण उपयुज्यते श्लेषस्य वर्णनं कविना एव क्रियते अग्रिमार्थे कथं रजः एव कारणमासीत् इति यस्मात् यतः किमर्थमेवमुच्यते गता प्राप्ता का सा अहल्या कां गता विकृतिं गता विकृतिः अदृश्यावस्था अथवा पाषाणरूपम् उभयथापि यथा उक्तम् उभयथापि अस्ति प्रतीतिः सो विकृतिं गता स्वस्य निजरूपं नष्टं निजरूपं निजरूपस्य नाशेन अदृश्यतां वा पाषाणरूपतां वा प्राप्तवती केन कारणेन विकृतिं गता गुणेन रजसा रजोगुणेन सत्त्वं रजः तमः सो क्रियाशालित्वं रजसः भवति सो सत्त्वगुणं विहाय रजोगुणभूयिष्ठा सा इन्द्रस्य इन्द्रम् अङ्गीकृत्य शापभाग् जाता अतः गुणेन रजसा विकृतिं गता सा प्रपेदे प्राप्तवती का सा उभयत्र सा इति समानम् अहल्या कां प्रपेदे प्रकृतिं सो प्रकृतिः विकृतिः इति विरुद्धार्थकं पदं प्रकृतिः स्वरूपं स्वस्य रूपम् अथवा निज आकृतिः प्रकृतिः सो पुनः नैजं रूपं प्राप्तवती केन प्राप्तवती? पादरजसा, पादस्य रजः, रजः इति अत्र धूलिः, रेणुः इत्यर्थः, चरणयोः रेणुना। कस्य पादरजसा? रामस्य पादरजसा प्रकृतिं प्रपेदे। सो गुणेन रजसा विकृतिं गता सा रामस्य पादरजसा प्रकृतिं प्रपेदे। एवञ्च दुःखे अपि रजः एव कारणं, सुखे अपि रजः एव कारणमासीत्। गौतमधर्मपत्न्याः तादृग्विधे महति दुःखे सुखे च रजः एव हेतुः बभूव। यस्मात् रजसा गुणेन विकृतिं गता सा रामस्य पादरजसा प्रकृतिं प्रपेदे। सो अहल्यायाः अदृश्यत्वजनिते तीव्रक्लेशे पुनः स्वरूपप्राप्तिरूपे महदानन्दे च रजः एव कारणमासीत्। यतः रजो गुणेन शापपः भूत्वा विकृतिं प्राप्ता सा रामस्य पादरेणुना पुनः निजाकृतिं प्राप्तवती। शापे अपि रजः नाम रजोगुणः कारणं, पुनः स्वरूपप्राप्तौ रजः पादधूलिः कारणम् अभूत्। सो रजस् सकारान्तः नपुंसकलिङ्गः, तस्य प्रथमाविभक्तौ एकवचने रजः। सो गुणास्तत्त्वं रजस्तमः इति त्रयः गुणाः, एवं रेणुर्द्वयोस्त्रियां धूलिः, पांसुर्ना न द्वयो रजः। सो पश्यतु अत्र रेणुः धूलिः पांसुः रजः चत्वारि पदानि सन्ति, सर्वेषां लिङ्गं भिन्नम्। रेणुः द्वयोः, सो अमरकोशः नाम लिङ्गानुशासनम् इत्येव विशेषः। सामान्यतः अन्ये कोशाः नामानि यच्छन्ति, शब्दान् निर्दिशन्ति, तेषां लिङ्गज्ञाने क्लेशः भवति, किन्तु अमरकोशे नाम्नः लिङ्गस्य उभयोः निर्देशः भवति, अत एव नामलिङ्गानुशासनम् इत्युच्यते। तत्र रेणुः द्वयोः, द्वयोः इत्युक्ते पुल्लिङ्गे स्त्रीलिङ्गे उभयत्रापि रेणुशब्दः अस्ति। सो पुल्लिङ्गस्त्रीलिङ्गशब्दः। स्त्रियां धूलिः, धूलिशब्दः स्त्रीलिङ्गे एव भवति। पांसुर्ना, ना इत्युक्ते पुल्लिङ्गशब्दः इत्यर्थः, नरः इत्यस्य ना इत्युच्यते। सो पुल्लिङ्गे पांसुशब्दः, स्त्रीलिङ्गे धूलिः, पुल्लिङ्गे पांसुः, रेणुः द्वयोः, पुं स्त्रीलिङ्गयोः उभयोः रेणुः, न द्वयोः रजः। सो रजशब्दस्तु द्वयोः न, पुल्लिङ्गे अपि न स्त्रीलिङ्गे अपि न, इत्युक्ते नपुंसकलिङ्गशब्दः इत्यर्थः। सो पुल्लिङ्गे पांसुः, स्त्रीलिङ्गे धूलिः, नपुंसकलिङ्गे रजः, रेणुः इति तु पुंस्त्रीलिङ्गयोः उभयोः भवति। हेतुः, हेतुशब्दः उकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ एकवचनम्। हेतुर्ना कारणं बीजम्। सो हेतुः ना, ना इत्युक्ते पुल्लिङ्गः, पूर्वमपि उक्तं पांसुर्ना हेतुर्ना, हेतुशब्दः पुल्लिङ्गे, कारणं बीजम् इति तु नपुंसकलिङ्गे। प्रपेदे, प्र उपसर्गः पदगतौ धातुः, आत्मनेपदे लिट्लकारे प्रथमपुरुषे एकवचनम्। अत्र वृत्तम् अस्ति वसन्ततिलक भोजस्य प्रियं वृत्तं वसन्ततिलक। प्रथमश्लोकः अपि वसन्ततिलकायामेव अस्ति। दुःखे सुखे च रज एव बभूव हेतुः, तादृग्विधे महति गौतमधर्मपत्न्याः, यस्माद् गुणेन रजसा विकृतिं गता सा रामस्य पादरजसा प्रकृतिं प्रपेदे। इत्येवम् अद्य अहल्यावृत्तान्तः अस्माभिः दृष्टः। सो अत्रागमद्गौतमधर्मदारान् अनार्यजुष्टेन पथामहेन्द्रः, स च क्रुधा निर्पृषणं वृषाणं भार्यामदृश्यान् च मुनिश्चकार। सो इन्द्रः असाधुमार्गेण गौतमस्य धर्मपत्नी महल्यां सङ्गतवान्। ज्ञात्वा क्रुद्धः गौतमः वृषणं निर्वृषणं भार्याम् अदृश्यां च कृतवान्। वनमेतद्गते रामे शापान् मुक्त्वा भविष्यसि। यदा रामः एतद्वनम् आगच्छति तदा तव शापान् मुक्तिः भविष्यति इत्युक्त्वा हिमाद्रिं तपसे ययौ। गौतमः तपश्चरणार्थं हिमालयं गतवान्। इत्थं विदितवृत्तान्ते देवतानां गणे तदा पितॄणां प्राभवाल्लेभे मेषस्य वृषणं वृषा। इन्द्रः पुनर्गतः पितॄणां माहात्म्येन मेषस्य वृषणं प्राप्तवान्। तदेनामेनसो मुक्तां प्रतिगृह्णातु गौतमः इति तस्याश्रमं भेदे साकं रामेण कौशिकः। एवम् अहल्यायाः कथाम् उक्त्वा इदानीं भवतः प्रभावेण एषा अहल्या शापान् मुक्ता भवतु इति रामं गौतमस्य आश्रमं प्रति नयति विश्वामित्रः। दुःखे सुखे च रज एव बभूव हेतुः तादृग्विधे महति गौतमधर्मपत्न्याः। यस्माद् गुणेन रजसा विकृतिं गता सा रामस्य पादरजसा प्रकृतिं प्रपेदे। अहल्या स्वस्य रूपं प्राप्तवती इत्यर्थः। तत्र श्लेषेण कविः वदति रजः एव तस्याः दुःखे सुखे च कारणमासीत्। रजोगुणेन सा शापग्रस्ता, इदानीं तु रामस्य पादरजसा शापान् मुक्तिं प्राप्तवती। आम् अत्र महादेवन् महोदयः वदति गौतमस्य शापेनैव इन्द्रः सहस्राक्षः अपि अभूत् इति क्वचित् दृश्यते। सत्यं मयापि वस्तुतः अद्य रामायणस्य पठनात् पूर्वं तदेव मम मनसि अपि आसीत्। इन्द्रस्य सहस्राक्षत्वे, इन्द्रः सहस्राक्षः, सहस्रम् अक्षीणि इति उच्यते, तत्रापि गौतमस्य शापः एव कारणम् इति मम मनसि अपि आसीत्। किन्तु वाल्मीकिरामायणे नास्ति, यतोहि तत्र प्रसङ्गस्य आरम्भे एव सहस्राक्षः इत्येव इन्द्रस्य वर्णनमस्ति। तत्र यत्र दृष्टं प्रथमवाक्ये एव तस्यान्तरं विदित्वा तु सहस्राक्षशचीपतिः मुनिवेषधरः, यदा सः आगतवान् तदैव सहस्राक्षः इत्यस्ति। मयापि चिन्तितं, मम मनसि अपि तदेव आसीत् इन्द्रस्य सहस्राक्षत्वे गौतमशापः कारणमिति। तत् कम्बरामायणे उच्यते इति महोदयेन उच्यते, अन्यत्रापि क्वचित् स्यात्, इतोपि मयापि तत् पठितम्, अत्र तु तथा न दृश्यते। वृषाणः इत्यत्र किमर्थं बहुवचनम्, कुत्र भगिनि बहुवचनं कुत्र प्रयुक्तं?
निर्गताः वृषाणाः
ततः द्विवचनं प्रयोक्तव्यमासीत् चिन्तितं मया, परिष्करोमि। निर्गतौ वृषणौ इत्येव
पुनः द्वयोः सर्वदा अपि अमरकोशे पुल्लिङ्गस्त्रीलिङ्गमेव खलु, तद् नपुंसकलिङ्गं तत्र न गम्यते,
न अङ्गीकृ द्वयोः इत्युक्ते पुंस्त्रीलिङ्गौ इत्येव। अत्र मेषेण कः सम्बन्धः इति, सम्बन्धः इति किमपि नास्ति, सा कथा तथा अस्ति। इन्द्रः मेषस्य वृषणं प्राप्तवान् गौतमस्य शापेन, तस्य वृषणौ नष्टौ, अतः सः पितृदेवताः तस्य मेषवृषणं योजितवन्तः इति कथा। यथा उक्तं वेदकालादपि प्रसिद्धा कथा विद्यते। किमर्थं मेषः न ज्ञायते मया। तत्र अमरकोशे यदि स्त्रीलिङ्गे नपुंसकलिङ्गे अस्ति तर्हि द्वयोः इति नोच्यते, द्वयोः इत्येतत्तु पुंस्त्रीलिङ्गयोरेव। सो यदि पुल्लिङ्ग नपुंसकलिङ्गे स्त्रीलिङ्गे प्रयोगः तदा अन्यथा उच्यते, न पुंसि इति वा तथा किमपि निर्देशः क्रियते, अथवा स्त्रीक्लीभयोः इत्येवं द्वयोः इति। तत्र अमरकोशः अमरकारः एव पूर्वपीठिकायां वदति पीठिका किं मङ्गलश्लोकः दुराश्लोकः तत्र सः स्पष्टं कथयति मया झटिति न स्मर्यते सा पङ्क्तिः नित्यज्ञानदया सिन्धोरगाधस्यानखा गुणाः सेव्यतामक्षयो धीरा शशियै चान्द्रकायि च समाहृत्यान्यतन्त्राणि संक्षिप्य किमपि अस्ति सः कथयति लिङ्गविषये कथं निर्देशः तेन क्रियते इति सो द्वयोः मिथुनम् इति पुंस्त्रीलिङ्गयोरेव निर्देशः अस्तु समापयामः मङ्गलम्
लक्ष्मीं धनोजु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखा प्रवालम् हैरम्बमं बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधार धुरन्धरन्नः
धन्यवादाः सत्यं मिथुने तु द्वयोरिति सो मिथुने मिथुनं नाम स्त्रीपुल्लिङ्गयोः अतः मिथुने तु द्वयोरिति त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति सो त्रिषु इत्युच्यते चेत् लिङ्गत्रयेपि अस्ति मिथुने मिथुनशब्दः सर्वदा पुंस्त्रीलिङ्गयोरेव द्वयोः इत्युच्यते अतः द्वयोः इति तयोरेव not random any two it is always pullinga and strilinga astu dhanyavadah agrima saptahe vargah na bhavishyati maya karyalaye melanam bhavati atah agrima vargah adya tritiyam 17 saptadashe agrimah vargah dhanyavadah